एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः प्रतिनिधि सभायाः ह्यस्तनोपवेशे गत विक्रमवर्षीयम् मीडिया काउन्सिल विधेयकम् प्रस्तुतमस्ति उपवेशे राष्ट्रिय सभायाम् उत्पन्नम् गत विक्रमवर्षीयम् मीडिया काउन्सिल विधेयकम् राष्ट्रिय सभातः प्राप्तेन सन्देशेन सहितम् प्रस्तुतम् वर्तते एवमेव उपवेशे उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी एतद् विक्रमवर्षीयम् निर्यात प्रेषण नियमन विधेयकम् प्रस्तुतवान् प्रतिनिधिसभाया ह्यस्तनोपवेशः प्रतिपक्षिदलानाम् सांसदैः सदनम् नियमविपरीतम् सञ्चल्यमानम् अस्तीति उक्त्वा विरोधस्य पश्चात् पञ्चदश निमेषेभ्य अवरुद्धः आसीत् प्रतिनिधिसभाया ह्यस्तनोपवेशस्य आकस्मिक समये प्रमुख प्रतिपक्षी नेकपा माओवादी केन्द्रस्य प्रमुख सचेतक पदीय हितराज पाण्डे नेकपा एमाले दलस्य मुख्य सचेतक पदीय महेश वर्तौ लाचा सदनस्य सञ्चालनस्य विषये उक्तवन्तौ आस्ताम् प्रतिनिधिसभाया ह्यस्तनोपवेशे सांसदाः सामयिक राजनीतिक विषयेषु विकास निर्माणस्य पूर्वाधार विकासस्य च विषयेषु च सर्वकारस्य ध्यानम् आकर्षयन् प्रतिनिधिसभायाः अपरोपवेशः फाल्गुनस्य चतुर्थे दिवसे दिवा एकवादने अवस्था तस्मिन् उपवेशे प्रधानमन्त्रिणा केपी शर्मा ओलिना सह प्रत्यक्ष प्रश्नोत्तर कार्यक्रमः भविष्यति इति च सभामुख देवराज घिमिरे ह्यस्तनोपवेशम् असूचयत् प्रधानमन्त्री केपी शर्मा ओली सहकार्यस्य संरचनायां ऋणोद्योगानां पुनसञ्चालनाय प्रस्तावम् आनेतुं नैज क्षेत्रम् अनुरुणद्धि प्रधानमन्त्री मन्त्रिपरिषद कार्यालये ह्य सम्पन्ने उद्योग वाणिज्य प्रवर्धन संवाद परिषद उपवेशे प्रधानमन्त्री ओली सर्वकार नैज क्षेत्रेण सह सहकार्याय तत्परोस्तीत्यत उद्योगानां पुनः सञ्चालनाय प्रस्तावम् आनेतुम् अनुरुणत प्रधानमन्त्री ओली आर्थिक समृद्ध्यर्थम् अधिनियमैः विधिभिश्च सम्बद्धेषु क्षेत्रेषु सहजीकरणाय सर्वकारः नैज क्षेत्राय सहयोक्तुम् तत्परोऽस्तीति अगदत् उपवेशे परिषदः सदस्यैः सार्वजनिक नैज क्षेत्रयोः सहकार्येण निवेशम् सहकार्यम् च कर्तुम् सार्वजनिक निकायेषु स्वदेशीयानाम् वस्तूनाम् प्रयोगवर्धनस्य व्यापारे क्षतेः न्यूनीकरणस्य अध्यादेशानाम् क्रियान्वयनस्य विषयेषु परामर्शनानि प्रदत्तानि आसन् उपवेशे सर्वकारस्य पक्षतः आर्थिक प्रशासनिक सुधारस्य प्रयासः अध्यादेशस्य माध्यमेन विधिनाम् संशोधनम् तत्प्रभावः विकास निर्माणयोः प्रगतिः व्यापार सहजीकरणाय विहितः प्रयासश्च प्रस्तुताः आसन् प्रधानमन्त्री केपी शर्मा ओली अस्यैव माघमासस्य द्वाविंशात् दिवसात् प्रारब्धम् गर्भाशय अर्बुदरोगस्य विरुद्धस्य एचपीभी नामक टीकोषधानाभियानम् उत्साहपूर्वकम् सञ्चल्यमानमस्तीति उक्तवान् वर्तते पूर्वेद्योः सामाजिक सञ्जालस्य माध्यमेन दशलक्षेभ्यः अपि अधिक किशोरीषु टीकोषधमेतद् आधातुम् सफलता अधिगतास्तीति उक्त्वा कार्येऽस्मिन् संलग्नेभ्यः सर्वेभ्यः धन्यवादम् प्रायच्छत् प्रधानमन्त्री ओली टीकोषधाधानाभियाने संलग्नेभ्यः व्यवस्थापकेभ्यः स्वास्थ्यकर्मिभ्यः स्वयंसेवकेभ्यः शिक्षकेभ्यः अभिभावकेभ्यश्च सर्वकारीयेभ्यः सर्वकारीयेतर निकायेभ्यश्च संस्था ध्यश्च धन्यवादम् व्याहरन् फाल्गुनमासस्य षष्ठम् दिवसम् यावत् सञ्चल्यमानेऽस्मिन् अभियाने सहभागिताय सर्वाः किशोरीः अन्वरुणत् स्वास्थ्य मन्त्रालयेन गर्भाशय मुखार्बुद विरुद्धस्य एचपीभीटीकोषधस्य विषये प्रसारितेषु भ्रमेषु विश्वासम् न धर्तुम् अनुरुद्धमस्ति स्वास्थ्य सेवा विभागस्य परिवार कल्याण महाशाखायाः बाल स्वास्थ्य टीकौषध शाखायाः प्रमुखेण डाक्टर अभियान गौतमेन टीकौषधम् प्रति प्रसार्यमाणस्य भ्रमस्य विषये ध्यानाकर्षणम् जातमस्तीति उक्त्वा तत्र विश्वासम् न धर्तुम् सर्वे अनुरुद्धाः वर्तन्ते जनता समाजवादी दल नेपालस्य संसदीय दलेन भूमि सम्बद्धान् केषाञ्चित काञ्चित नेपालादि नियमान संशोधयितुम् क्रियान्वितस्य अध्यादेशस्य विरूद्धे मतम् दातुम् निर्णीतमस्ति। सीमप्रसादवर्तिनी संसदीय दलस्य कार्यालये ह्य उपवेशेन भूमि सम्बद्धः अध्यादेशोऽयम् दीर्घकालिक रूपेण समग्र देशस्य हितविपरीतोऽस्तीति विज्ञाप्य विपक्षे मतम् दातुम् निर्णीतम् वर्तते। उपवेशेन सर्वकारेण क्रियान्वितेषु षट्सु अध्यादेशेषु पञ्चानाम् अध्यादेशानाम् समर्थन पुरस्सरम् पक्षे मतदानम् विधातुम् शक्यते इति निर्णीतम् वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन धनबहादुर ओली गणतन्त्र लाओस देशस्य कृते नेपालस्य आवासीयेतर राजदूत पदे च नियुक्तोऽस्ति। नेपालस्य संविधानस्य अनुसारेण मन्त्री परिषदः परामर्शेन थाइल्याण्ड देशस्य कृते नेपालस्य आवासीय राजदूतः ओली लाओस देशस्य कृतेऽपि आवासीयेतर राजदूत पदे नियुक्तोऽस्तीति राष्ट्रपतेः कार्यालयेन ज्ञापितम् वर्तते। पौष शुक्ल पूर्णिमातः प्रारब्धः स्वस्थानी व्रत प्रकल्पः अद्य माघ शुक्ल पूर्णिमायाम् पूर्णताम् प्राप्नोति। अद्य माघ शुक्ल पूर्णिमायाम् भक्तजनैः मध्याह्ने पूजाम् विधाय स्वस्थानी व्रतस्य समापनम् विधीयते। काष्ठमण्डपे साखु नामके स्थाने शालिनद्याः तटे सञ्चल्यमाना माधव नारायण मेलापि एकमासानन्तरम् अद्यैव परिसमाप्नोति। श्री स्वस्थानी व्रतस्य कृते काष्ठमण्डपस्य साखुस्थाने शालिनद्याः तटे महत श्री स्वस्थानी मेलापकम् च समायोजितम् वर्तते। यत्र व्रतालूनाम् दर्शनार्थिनाम् भक्तानाम् च महान् सम्मर्दः दृश्यते। गतस्य पौष मासस्य उनत्रिंश दिवसात् पौष शुक्ल पूर्णिमातः भगवत्याः स्वस्थानी देव्याः एकमासात्मकम् व्रतम् प्रारब्धमासीत्। पुरा देवादिदेवम् महादेवम् पतित्वेन वरितु कामया त्यक्ताहारया पार्वत्या बालुकाया शिवलिङ्गम् निर्वाय शिवपूजनम् कृतम् तस्य प्रभावेण सा सर्वभूतपतिम् पशुपतिम् अवाप इति वृत्तान्तः स्वस्थानी व्रतस्य महत्वा गानावसरे चर्चितो वर्तते। गौरीशंकरयोः सम्मेलनमनु लोककल्याणार्थम् पार्वत्या ऋषिभिश्च इदम् व्रतम् प्रचारितम् इति जनविश्वासो वर्तते। रूकुममा पूर्व जनपदस्य भूमे ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य साकिम स्थाने अष्टमासानाम् बालकेन सह जनद्वयम् मारितम् वर्तते। ह्य दिवा त्रिवादने अष्टमासानाम् समीर नामकः बालकः तस्य पितामही षष्ठी वर्षीया ढाँटी बुढा च मारिते स्तः। एकपञ्चाशत् वर्षीयेण चन्द्रसिंहपुन इत्यनेन एतयोर्मारणम् कृतमिति रूकुमा पूर्व जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः माधवराज खरेलः अज्ञापयत्। घटनायां संलग्नः एकपञ्चाशत् वर्षीय चन्द्रसिंहपुन अपि मृतोऽस्ति। मारणानन्तरम् पलायनस्य क्रमे भृगुतः निपत्य चन्द्रसिंहपुन मृतोऽस्तीति असौ असूचयत्।